ओम नमो भगवते वासुदेवाय। अथाष्टचत्वारिंशोऽध्यायः। श्रीशुक उवाच। अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः, सैरन्ध्र्याः कामतप्तायाः प्रियमिच्छन् गृहं ययौ। महार्होपस्करैराढ्यं कामोपायोपबृंहितं, मुक्तादामपताकाभिर्वितानशयनासनैः, धूपैः सुरभिर्दीपैः स्रग्गन्धैरपि मण्डितम्। गृहं तमायान्तमवेक्ष्य शासनात् सद्यः समुत्थाय हि जातसम्भ्रमा। यथोपसङ्गम्य सखीभिरच्युतं सभाजयामास सदासनादिभिः, तथोद्धवः साधुतयापि पूजितोऽन्यषीद् दुर्व्यामभिमृश्य चासनम्। कृष्णोऽपि तूर्णं शयनं महाधनं विवेश लोकाचरितान्यनुव्रतः। सामज्जनालेपदुकूलभूषणस्रग्गन्धताम्बूलसुधासवादिभिः प्रसाधितात्मोपससारमाधवं सव्रीडलीलोत्स्मितविभ्रमेक्षितैः। आहूय कान्तां नवसङ्गमहर्या विशङ्कितां कङ्कणभूषिते करे, प्रगृह्य शय्यामधिवेश्य रामया रेमेनुलेपार्पणपुण्यलेशया। सानङ्गतप्तकुचयोरुरसस्तथा क्ष्णोर्जिग्रन्त्यनन्तचरणेन रुजो मृजन्ति। दोर्भ्यां स्तनान्तरगतं परिरभ्यकान्तमानन्दमूर्तिमजहादतिदीर्घतापम्। सैवं कैवल्यनाथं तं प्राप्य दुष्प्रापमीश्वरम्। अङ्गरागार्पणेनाहो दुर्भगे दमयाचत, आहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया। रमस्वनोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहे क्षण, तस्यै कामवरं दत्त्वा मानयित्वा च मानदः। सहोद्धवेन सर्वेश स्वधामागमदर्चितम्। दुराराध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम्। यो वृणीते मनोग्राह्यमसत्त्वात् कुमनीष्यसौ। अक्रूरभवनं कृष्णः सह रामोद्धवः प्रभुः, किञ्चिच्चिकीर्षयन् प्रागादक्रूरप्रियकाम्यया। सदान्नरवरश्रेष्ठानाराद्वीक्ष्य स्वबान्धवान्, प्रत्युत्थाय प्रमुदितः परिष्वज्याभ्यनन्दत। न नाम कृष्णं रामं च सतैरप्यभिवादितः, पूजयामास विधिवत् कृतासनपरिग्रहान्। पादावने जनीरापो धारयन् शिरसा नृप, अर्हणेनाम्बरैर्दिव्यैर्गन्धस्रग्भूषणोत्तमैः। अर्चित्वा शिरसा नम्य पादावङ्कगतौ मृजन्, प्रश्रयावनतो क्रूरः कृष्णरामावभाषत। दिष्ट्या पापो हतः कंसः सानुगोवामिदं कुलम्, भवद्भ्यामुद्धृतं कृच्छ्रा दुरन्ताच्च समेधितम्। युवां प्रधानपुरुषौ जगद्धेतु जगन्मयौ, भवद्भ्यां न विना किञ्चित् परमस्ति न चापरम्। आत्मसृष्टमिदं विश्वमन्वाविश्य स्वशक्तिभिः, ईयते बहुधा ब्रह्मन् श्रुतप्रत्यक्षगोचरम्। यथा हि भूतेषु चराचरेषु मह्यादयो योनिषु भान्ति नाना, एवं भवान् केवलात्मयो निष्वात्मात्मतन्त्रो बहुधा विभाति। सृजस्यथो लुम्पसि पासि विश्वं रजस्तमः सत्त्वगुणैः स्वशक्तिभिः, न बध्यसे तद्गुणकर्मभिर्वा ज्ञानात्मनस्ते क्वच बन्धहेतुः। देहाद्युपाधेरनिरूपितत्वात् भवो न साक्षान्नभिदात्मनः स्यात्। अतो न बन्धस्तव नैव मोक्षः, स्याताम् निकामस्त्वयि नो विवेकः। त्वयोदितोऽयम् जगतो हिताय यदा यदा वेदपथः पुराणः। बाध्येत पाखण्डपथैरसद्भिस्तदा भवान् सत्त्वगुणम् बिभर्ति। सत्त्वम् प्रभोद्य वसुदेव गृहेव तीर्णः, स्वांशेन भारमपनेतुमिहासि भूमेः। अक्षौहिणी शतवधेन सुरेतरांश, राज्ञाममुष्य च कुलस्य यशो वितन्वन्। अद्येष नो वसतय खलु भूरिभागाय सर्वदेव पितृभूतनृदेवमूर्तिः। यत्पादशौच सलिलं त्रिजगत्पुनाति, सत्त्वं जगद्गुरुरथोऽक्षजया प्रविष्टः। कः पण्डितस्त्वदपरं शरणं समीयात्, भक्तप्रिया धृतगिरः सुहृद कृतज्ञात्। सर्वान् ददाति सुहृदो भजतोऽभिकामानात्मानमप्युपचयापचयौ नयस्य। दिष्ट्या जनार्दन भवानिह न प्रतीतो योगेश्वरैरपि दुरापगतिः सुरेशैः। छिन्ध्याशु नः सुतकलत्र धनाप्तगेह, देहादिमोहरशनां भवदीयमायाम्। श्रीशुक उवाच। इत्यर्चितः संस्तुतश्च भक्तेन भगवान् हरिः अक्रूरं सस्मितं प्राह गीर्भिः सम्मोहयन्निव श्रीभगवानुवाच त्वं नो गुरुः पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याः प्रजाहिवः भवद्विधा महाभागा निषेव्या अर्हसत्तमाः श्रेयस्कामैर्नृभिर्नित्यं देवा स्वार्था न साधवः न यं मयानि तीर्थानि न देवा मृच्छिलामयाः ते पुनन्त्युरुकालेन दर्शनादेव साधवः स भवान् सुहृदां वैनः श्रेयाञ्छ्रेयश्चिकीर्षया जिज्ञासार्थं पाण्डवानां गच्छस्वत्वं गजाव्वयम् पितर्युपरते बाला सह मात्रा सुदुःखिताः आनीता स्वपुरं राज्ञा वसन्त इति शुश्रुम तेषु राजाम्बिका पुत्रो भ्रातृपुत्रेषु दीनधीः समो न वर्तते नूनं दुष्पुत्रवशगोऽन्धदृक् गच्छ जानीहि तद्वृत्तमधुना साध्व साधु वा विज्ञाय तद्विधास्यामो यथाशं सुहृदां भवेत् इत्यक्रूरं समादिश्य भगवान् हरिरीश्वरः सङ्कर्षणोद्धवाभ्यां वै ततः स्वभवनं ययौ ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टचत्वारिंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।